इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य दृश्यश्रव्य आभासीयमाध्यमेन गुजरातस्य वडताले श्रीस्वामीनारायणमन्दिरस्य 200वें वार्षिकोत्सवसमारोहे भागं भजिष्यति। सः अस्मिन् अवसरे एकां सभाम् अपि सम्बोधयिष्यति। वडतालस्य श्रीस्वामीनारायणमन्दिरः दशकेभ्यः जनानां सामाजिकाध्यात्मिकरूपेण च जीवनं प्रेरयति। झारखण्डराज्ये प्रथमचरणीयविधानसभानिर्वाचनस्य प्रचाराभियानम् अद्य सायम् अवसीयते। चरणेऽस्मिन् अस्य मासस्य 13 दिनांके 43 निर्वाचनक्षेत्रेषु मतदानं भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी झारखण्डस्य भाजपेति दलस्य कार्यकर्तॄन् दृश्यश्रव्यपरान्तर्जालीयमाध्यमेन अद्य 12:30 मेरा बूथ सबसे मजबूत इत्यस्मिन् कार्यक्रमे सम्बोधयिष्यति। सरायकेला निर्वाचनक्षेत्रस्य आदित्यपुरस्य पादकन्दुकक्रीडाङ्गणे पूर्वमुख्यमन्त्रिणः चम्पई शोरेनस्य समर्थने भाजपायाः वरिष्ठो नेता तथा केन्द्रीयगृहमन्त्री अमितशाहः अद्य पथप्रदर्शनं करिष्यति। तत्रैव कांग्रेसदलस्य अध्यक्षः मल्लिकार्जुनखड्गे पांकी तथा छतरपुरविधानसभानिर्वाचनक्षेत्रे 2 निर्वाचनसभे करिष्यति। न्यायाधीशः संजीवखन्ना अद्य भारतस्य 150वें मुख्यन्यायाधीशस्य शपथग्रहणं करिष्यति। राष्ट्रपतिः द्रौपदी मुर्मू अद्य प्रातः राष्ट्रपतिभवने एकस्मिन् विशिष्टसमारोहे न्यायमूर्ति खन्नावर्याय पदस्य शपथवाचनं कारयिष्यति। न्यायाधीशः संजीवखन्ना ह्यः सेवानिवृत्तस्य न्यायाधीशस्य डीवाई चन्द्रचूडस्य स्थानं स्वीकरिष्यति। न्यायाधीशः संजीवखन्ना 83-ऊनविंशतिशततमे वर्षे दिल्लीनगरस्य बार परिषदे अधिवक्तारूपेण नामाङ्कितः। केन्द्रीयविद्युद्मन्त्री मनोहरलालः ह्यः नवदिल्ल्यां ध्वजं प्रदर्श्य ई-वाहनमाध्यमेन यात्रां कृतवान्। अस्मिन् अवसरे सः ईवी एज ए सर्विस इति कार्यक्रमम् अपि समारब्धवान्। अस्मिन् अवसरे मनोहरलालमहोदयः अवदत् यत् एषः कार्यक्रमः एकस्य उदात्तकार्यस्य कृतम् आरब्धः, यस्य देहल्याः कृते बहु आवश्यकता वर्तते। सः प्रदूषणं न्यूनीकर्तुं विद्युद्वाहनानां भूमिकां ईवी एज ए सर्विस इति कार्यक्रमस्य माध्यमेन महत्त्वं च प्रकाशितवान्। युवकार्याणां क्रीडामन्त्री तथा डॉ मनसुख मंडाविया छत्तीसगढ़स्य जशपुरे बुधवासरे जनजातीय गौरव दिवसावसरे भारतीय स्वयंसेवकैः सह पदयात्रां करिष्यति। अस्मिन् कार्यक्रमे छत्तीसगढ़स्य मुख्यमंत्री विष्णुदेव साई अन्ये च राज्यमन्त्रिणः भागं ग्रहणं करिष्यन्ति। अस्मिन् कार्यक्रमे ते भगवान् बिरसामुण्डायाः जन्मदिवसावसरे स्मरणं करिष्यन्ति। सममेव तस्य राष्ट्रस्य विकासे आदिवासीसमुदायस्य महत्त्वपूर्णं योगदानस्य विषयेऽपि चर्चां करिष्यन्ति। भारत दक्षिण अफ्रीका देशयोः मध्ये गतसायं 20-प्रतिविंशति क्रिकेट क्रीडास्पर्धायाः द्वितीये द्वन्द्वे गकेबरहा नगरस्य सेंट जॉर्ज पार्क इति क्रीडांगणे दक्षिणाफ्रीकादलेन भारतं 3-0 पराजितम्। अस्याः श्रृंखलायाः तृतीयः द्वन्द्वः बुधवासरे सेंचुरियन नगरे, चतुर्थः द्वन्द्वः शुक्रवासरे जोहान्सबर्ग नगरे च भविष्यति। इति वार्ताः।